पथमार्गेण पश्येत् कूटं सभक्तितः अश्वान्याधिपतिं शम्भुं शीतलाङ्गलोकशङ्करीम् उत्तरायणी दुर्गाक्षं वैकुण्ठेश्वरमुत्क्रमात् रक्षकं कपिश्रेष्ठं च षडैतान् मोक्षदायकान्। पथमार्गेण पश्येत् कूटं सभक्तितः अश्वान्याधिपतिं शम्भुं शीतलाङ्गलोकशङ्करीम् उत्तरायणी दुर्गाक्षं वैकुण्ठेश्वरमुत्क्रमात् रक्षकं कपिश्रेष्ठं च षडैतान् मोक्षदायकान्।